द्वितीयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य तृतीय चरणस्य प्रचाराभियानम् अद्य समाप्तिम् एष्यति। विभिन्न दलीयाः राजनैतिक नेतारः स्व दलस्य प्रत्याशिनां पक्षे प्राचुर्येण जनसभाः सम्बोधयन्ति। प्रधानमंत्री भारतीय जनता पार्टी दलस्य च वरिष्ठ नेता श्री नरेन्द्र मोदी अद्य उत्तर प्रदेशे स्वदलस्य पक्षे नैर्वाचनिक प्रचारं कुरुते। केन्द्र सर्वकारेण स्पष्टीकृतं यत् विश्वस्य MRL इति अधिकतम अवशेष सीमानां कठोरतम मानकेषु अन्यतमः मानकः भारते वर्तते। जम्मू कश्मीरस्य सीमावर्ती पुंछ मण्डले ह्यः सायं भारतीय वायुसेना दलम् उद्दिश्य आतंकवादिभिः आक्रमणं कृतम्। अस्मिन् आतंकी गतिविधौ संलिप्ततायाः सन्देहाधारेण आरक्षी बलैः षट् स्थानीय जनाः अपि निगडिताः। अपि च क्रीडावार्तायाम्, एथलेटिक्स क्रीडायाम् अद्य अमेरिका देशे USATF क्रीडा महोत्सवे पुरुषाणाम् उच्च कूर्दन स्पर्धायां भारतस्य तेजस्विन शंकरः विजयं प्राप्नोत्। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य तृतीय चरणस्य प्रचाराभियानम् अद्य समाप्तिमेष्यति। विभिन्न दलीयाः राजनैतिक नेतारः स्व दलीय प्रत्याशिनां पक्षे प्राचुर्येण जनसभाः सम्बोधयन्ति। अस्मिन् तृतीय चरणे दश राज्येषु केन्द्रशासित प्रदेशेषु च तत्र च विशेषतः दादरा नगर हवेली दमन द्वीप समेतेषु 93 निर्वाचन क्षेत्रेषु मतदानं भविष्यति। उत्तर प्रदेशे अद्य राजनैतिक गतिविधिः प्रचण्डतया दृश्यते, यत्र च तृतीय चरणीय निर्वाचनाय नैके प्रत्याशिनः पथ प्रदर्शनं प्रतिगृहं च गत्वा प्रचारं कुर्वन्ति। द्वितीय चरणीय निर्वाचनार्थं चापि गतिविधयः तत्र प्राचुर्येण दृश्यन्ते। प्रधानमंत्री भारतीय जनता पार्टी दलस्य च वरिष्ठ नेता श्री नरेन्द्र मोदी अद्य राजनैतिक प्रचारार्थं उत्तर प्रदेशे वर्तते। श्रीमोदी केवलं इटावा धौरहरा निर्वाचन क्षेत्रेषु एव राजनैतिक जनसभाः न सम्बोधयति, अपितु अद्य सायंकाले अयोध्या जनपदे अपि एकं पथ प्रदर्शनं करिष्यति। तत्र च 2 किलोमीटर परिमित पथ प्रदर्शनं सुग्रीव दुर्गतः आरप्स्यते, अपि च लता चतुष्पथं यावत् गत्वा समाप्तिमेष्यति। भाजपेति दलस्य वरिष्ठ नेता उत्तराखण्डस्य च मुख्यमंत्री पुष्कर सिंह धामी अपि वदायु जनपदे पथप्रदर्शनं करोति। उत्तर प्रदेश कांग्रेस प्रभारी अविनाश पांडे कौशाम्बी मध्ये दलीय प्रत्याशिनां पक्षे प्रचारं करोति। उत्तर प्रदेशे 10 आसनानां कृते मंगलवासरे मतदानं भविष्यति। तत्र संभल हाथरस आगरा फतेहपुर सीकरी फिरोजाबाद मैनपुरी एटा बदायूं आमला बरेली इत्येतानि क्षेत्राणि सन्ति। प्रधानमंत्री श्री नरेन्द्र मोदी उत्तर प्रदेशानन्तरं दलीय प्रचारार्थं उड़ीसायां प्रचारार्थम् अद्य सायं भुवनेश्वरं प्राप्स्यति। अवधेयं यत् उड़ीसायां अस्य मासस्य 13 दिनांकात् चतुर्षु चरणेषु सहैव लोकसभा विधानसभा निर्वाचनं चापि भविष्यति। मध्यप्रदेशे राज्यस्य 9 लोकसभा आसनानां कृते नैर्वाचनिक प्रचारः अद्य सायं 6 वादनात् परं स्थगितो भविष्यति। एतेषु उक्तेषु लोकसभा आसनेषु मई मासस्य 7 दिनांके प्रातः 7 वादनादारभ्य सायं 6 वादनं यावत् मतदानं भविष्यति। छत्तीसगढ़े येषु 7 संसदीय क्षेत्रेषु मे मासस्य 7 दिनांके तृतीय चरणस्य मतदानं भविष्यति। तदर्थम् अद्य सायंकालात् 5 वादनात् नैर्वाचनिक प्रचारस्य उपशमनं भविष्यति। अवधेयं यत् विभिन्न राजनैतिक दलनेतारः मतदातॄन् स्वीय पक्षे मतं कर्तुं प्रयत्नरताः दरीदृश्यन्ते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newzoneair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जम्मू काश्मीरस्य सीमावर्ती पुंछ मण्डले ह्यः सायं भारतीय वायुसेना दलस्य उपरि आतंकवादिभिः आक्रमणं कृतं। तत्र एतस्मिन् गतिविधौ लिप्तायाः सन्देहाधारेण आरक्षीबलेन षट् स्थानीय जनाः निगडिताः। एते स्थानीय जनाः आक्रमणे आतंकवादिनां कृते साहाय्यं कृतवन्तः इति आशंका तत्र वर्तते। अवधेयमस्ति यत् अस्मिन् आततायी आक्रमणे पंच वायुसेना सैनिकाः घातिताः, एकश्च वीरगतिं चापि प्राप्तवान्। चत्वारः भारतीयाः मुष्टिक्रीडकाः आकाश गोरखा, विश्वनाथ सुरेशः, निखिलः, प्रीत मल्लिकश्च ह्यरात्रौ कजाकिस्तानस्य आस्ताना मध्ये एएसबीसी एशियन युव द्वाविंशः अपि च यूथ बॉक्सिंग चैंपियनशिप 2024 इत्यस्मिन् उपर्युक्ताः चत्वारः अपि क्रीडकाः द्वाविंश वयोमित क्रीडावर्गस्य अन्त्यचक्रं प्रविष्टवन्तः सन्ति। उल्लेखनीयः अयम् उपलब्धिः भारतस्य सर्वासु श्रेणीषु प्राप्तानां 43 पदकानां ऐतिहासिक संख्यां संख्यायुता जाता इति तत्र अवधेयं वर्तते। कांग्रेस दलेन आगामी उड़ीसा विधानसभा निर्वाचनस्य कृते 6 अभ्यर्थिनां सूची प्रकाशिता। दलेन जलेश्वर विधानसभा आसनात् देवी प्रसन्ना चंदस्य स्थाने सुदर्शन दासः सुस्थापितः, अक्षय आचार्यः नीलगिरी आसनात् स्पर्धिष्यते, उमा बल्लव रथ सुजीत महापात्रस्य स्थाने पुरी विधानसभा निर्वाचन क्षेत्रे सः तत्र स्पर्धिष्यते। अथ गढ़ क्षेत्रे सुदर्शन साहू, अथ मल्लिक क्षेत्रे च हिमांशु चौलिया निर्वाचनार्थं स्पर्धिष्यते। केन्द्र सर्वकारेण स्पष्टीकृतं यत् विश्वस्य एमआरएल्स इति अधिकतम अवशेष सीमानां कठोरतम मानकेषु अन्यतमः मानकः भारते तत्र प्रतिष्ठितः वर्तते, तथा च कीटनाशकानां मानकः भिन्न भिन्न खाद्यवस्तूनां कृते तेषां उत्तरदायी मूल्यांकनस्य आधारेण भिन्नरूपेण निर्धारितः वर्तते। कृषिमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् भारतस्य खाद्य सुरक्षा मानक प्राधिकरणेन वनस्पतिषु उपस्कर पदार्थेषु च 10 गुणाधिकं कीटनाशकस्य अनुमतिः प्रदीयते इति संचारतन्त्रैः यः आरोपः सम्प्रति संस्थापितः सः असत्याधारितः दुर्भावनापूर्णश्च वर्तते। कीटनाशकानां नियमनं केन्द्रीयमन्त्रालयेन कीटनाशक विधेयकान्तर्गतं संघटितस्य केन्द्रीय कीटनाशक मण्डलस्य पञ्जीकरण समित्याः च माध्यमेन भवति। केन्द्रीय गृहमन्त्री तथा च भाजपा दलस्य वरिष्ठ नेता श्री अमित शाह आंध्रप्रदेशस्य हिंदूपुर लोकसभा निर्वाचन क्षेत्रस्य धर्मवरम इत्यस्मिन् अद्य अपराह्ने निर्वाचन प्रचारे भागं गृहीतवान्। श्री शाह वदत् यत् प्रधानमन्त्रिणा श्री नरेन्द्र मोदिना नेतृत्वे प्रधानमन्त्री निर्धन कल्याण योजनायाः अन्तर्गतं 80 कोटि जनेभ्यः निःशुल्कं आहार धान्यं प्राप्तम्। आयुष्मान भारत योजनायाः अन्तर्गतं 50 कोटि जनैः 5 लक्ष रूप्यकाणां स्वास्थ्य लाभश्चापि प्राप्तः। सः उक्तवान् यत् देशे 30 उत्तर 100 कोटि जनेभ्यः कोविड सूच्यौषधं निःशुल्करूपेण प्रदत्तम्। सः आन्ध्रप्रदेशस्य वर्तमान मुख्यमन्त्री वाईएस जगनमोहन रेड्डी इत्यस्य आलोचनां कृतवान् यत् सः विकासस्य उपेक्षां कृत्वा राज्ये निवेशम् आकर्षयितुम् असफलः अभवत्। श्री शाह अवदत् यत् चन्द्रबाबू नायडू इत्यादयः अनुभविनो नेतारः राज्यस्य समग्र विकासं सुनिश्चित्य आन्ध्रप्रदेशस्य द्विभाजनोत्तरस्य आधारं स्थापितवन्तः, ते अवश्यमेव निर्वाचिताः भवेयुः। भारतीय ऋतु विज्ञान विभागेन पूर्वोत्तर भारते अद्य श्वः च अत्यधिक वृष्टिः भविष्यति तथा च प्रचण्ड वृष्टेः अनुमानम् अपि तत्र कृतं वर्तते। विभागेनेदमपि प्रोक्तं यत् आगामिनिषु 5 दिनेषु अरुणाचलप्रदेश, असम, मेघालय, सिक्किम, नागालैण्ड, मणिपुर, मिजोरम, त्रिपुरा राज्याणां केषुचित् क्षेत्रेषु वज्रपातैः सह आकाशीय विद्युत् प्रचण्ड वायुप्रवाहेण सह एव व्यापक वृष्टिः भवितुं शक्नोति। अद्य तत्र आईपीएल क्रिकेट प्रतिस्पर्धा प्रवर्तते। तत्र धर्मशाला मध्ये अद्य क्रीडांगणे पंजाब किंग्स इति दलस्य सम्मुखीकरणं चेन्नई सुपर दलेन भवति इति वार्ताः।